सर्वेभ्यो नमस्कारः. सर्वेषां स्वागतम्. गतसप्ताहे वयं दशधातुगणानां विषये वयं परिशीलितवन्तः. अनेन वस्तुतः अभ्यासमपि महान् लाभः भविष्यति, परन्तु वयं न पूरितवन्तः, सर्वं न पूरितवन्तः. इदानीं किञ्चित् तस्मिन् विषये पुनस्मरणं कृत्वा अग्रे पठितुम् आरम्भं कुर्मः. अस्तु अस्तु. इदानीम् अद्य अहं शनैः शनैः अथवा मन्दं गच्छामः. अस्तु, यत्र अहं शीघ्रं गच्छामि, पाठं यदा शीघ्रम् अस्ति चेत् मां सूचयतु, अहं सावधानेन पाठयिष्यामि. अस्तु, अनन्तरम् अस्तु, किञ्चित् कानिचन केचन प्रश्नान् कांश्चन प्रश्नान् अहं पृच्छामि. अस्तु, पृष्ट्वा तस्य अनन्तरं वयम् अग्रे गच्छामः. अस्तु, यदा सर्वेषां मनसि धातुगणस्य विषये किं किं ज्ञातवन्तः, किं किं स्मरन्ति इति अहम् एकवारं दृष्ट्वा तस्य अनन्तरम् अग्रे गच्छामः. अस्तु, पुनस्मरणं कृत्वा अग्रे गच्छामः. यदि क्लिष्टः अस्ति चेत् पुनः तस्मिन् विषये वयं चर्चां कृत्वा स्पष्टीकृत्वा अग्रे गच्छामः. अस्तु, मधुभगिनी स्वागतम्. अस्तु, जानकी भगिनी,
आं भगिनि,
भगिनि कति धातुगणाः कति सन्ति?
धातुगणाः दशगणाः सन्ति भगिनि.
सत्यं, समीचीनम्. अस्तु, धन्यवादः. पद्मिनी भगिनी,
आं भगिनि,
धातुगणेषु यदा वयं पठितुम् आरम्भं कुर्मः, तस्य पूर्वं नूतननामानि वयं ज्ञातव्यानि अस्ति. ते के? यदा क्रियापदमस्ति चेत् भागत्रयम् अस्ति. भागत्रयं किं किम्?
भागत्रयं धातुः, विकरणप्रत्ययः, तिङ् प्रत्ययः.
सत्यं, धातुः किं निर्दिशति?
अर्थं निर्दिशति.
विकरणप्रत्ययः?
गणं निर्दिशति.
तिङ्प्रत्ययः?
लकारं निर्दिशति.
बहु समीचीनं, धन्यवादः,
धन्यवादः.
अनन्तरं माधवी भगिनी.
आं भगिनि,
प्रथमधातुगणः कः?
भुवादिगणः.
समीचीनम्. अनन्तरं द्वितीयगणः कः?
अदादिगणः.
समीचीनम्. इदानीं भुवादिगणः इति स्वीकुर्मः चेत् तस्य विकरणप्रत्ययः कः?
शप्, अकारः.
अकारः न, केवलम् आ ए एव वदतु, तदेव समीचीनं भविष्यति. शप् इति विकरणप्रत्ययः, तस्य अनन्तरं परिवर्तनं कृत्वा अनेकाः सोपानं भविष्यति, तस्य अनन्तरम् आ एव तिष्ठति. शप् आ भवति, आ एव विकरणप्रत्ययः. अस्तु, समीचीनं, धन्यवादः भगिनि. शोभना भगिनि.
आं भगिनि,
कति धातवः सन्ति?
दश. ओ, कति धातवः?
पुनः वदतु.
2000
द्विसहस्रं.
द्विसहस्रं.
द्विसहस्रं धातवः सन्ति.
द्विसहस्रं धातवः सन्ति.
समीचीनं. प्रायः एकसहस्र धातवः कस्मिन् गणे भविष्यति?
भुवादिगणे.
भुवादिगणे भवति. समीचीनम्. अपरस्मिन् अन्य सहस्रदातवः कुत्र भविष्यति इत्युक्ते अपरस्मिन् धातुगणाः सन्ति किल तेषु भविष्यति. समीचीनं समीचीनं, धन्यवादः भगिनि. अस्तु, राधिका भगिनि.
आं भगिनि.
भुवादिगणस्य विकरणप्रत्ययः समीचीनं. उदाहरणम् उदाहरणं पट् इति धातु स्वीकुर्मः. अस्तु, पठति इति क्रियापदं भविष्यति किल, तस्य विभजनं कृत्वा वदति वा किं किं
पट् धातु. पट् धातु विकरणप्रत्ययः, तिङ् प्रत्ययः. पट् धातु अर्थं निर्दिशति. विकरणप्रत्ययः गणं निर्दिशति. तिङ् प्रत्ययः लकारं निर्दिशति.
सत्यं सत्यं, धन्यवादः भगिनी.
धन्यवादः.
सर्वेषां कृते अहं पृच्छामि, यद् वयं पठितवन्तः एतावद् यद् वयं इदानीं पुनस्मरणं कृतवन्तः, एतत् सर्वं सर्वेषां मनसि अस्ति वा? एतस्मिन् विषये प्रश्नाः सन्ति वा? अग्रे अपि प्रश्नः अस्ति, अहं पृच्छामि, परन्तु यद् वयं पुनस्मरणं कृतवन्तः इदानीं तत्सर्वम् अवगतवन्तः किल? समीचीनं समीचीनम्. अखिला भगिनी, भवती अपि विश्वासमस्ति वा?
आं भगिनि. आम्
अस्तु, समीचीनम्. अस्तु, धन्यवादः. अनन्तरम् अखिला भगिनी, भवती वदतु, द्वितीयगणः कः?
द्वितीयगणः अदादिगणः. अदादिगणः
अदादिगणः, समीचीनं सत्यम्. अदादिगणस्य विकरणप्रत्ययः कः?
अदादिगणस्य विकरणप्रत्ययः नास्ति.
नास्ति, समीचीनम्. उदाहरणं वदति वा, वक्तुं शक्नोति वा?
उदाहरणम् अस्ति इति धातु टि तिङ् प्रत्ययः, तस्य विकरणप्रत्ययः न अस्ति.
आम् सत्यं, तयोः मध्ये विकरणप्रत्ययः नास्ति, अतः अगादिगणे विकरणप्रत्ययः नास्ति. समीचीनं, बहु समीचीनं. अनन्तरं धन्यवादः.
धन्यवादः भगिनि.
अनन्तरं मधुभगिनी, अहं दृष्टवती भवत्याः मेसेज् दृष्टवती अहं, चिन्ता मास्तु भगिनि, केवलं शृणोतु. अनन्तरं चम्पा भगिनी.
आं भगिनि.
तृतीयगणः कः?
तृतीयगणः
आम् मधुभगिनी अहं स्थापितवती, माधुरीभगिनी अहं स्थापितवती. आम् रेकार्डिङ्ग् अस्ति भगिनि, धन्यवादः सूचनार्थम्. अहम् इदानीमेव दृष्टवती, रेकार्डिङ्ग् अस्ति. धन्यवादः. तृतीयगणः कः भगिनि?
भगिनी अहं पुस्तकं
अत्र क्लिष्टः कः इत्युक्ते, वाट् इस् द प्राब्लम्? भवती न स्मरति वा, अथवा भवत्याः पार्श्वे करपत्रम् अस्ति वा नास्ति वा?
नास्ति.
मुद्रणं कर्तुं क्लिष्टः अस्ति वा भगिनि? इस् इट् डिफिकल्ट् फार् यू टु गेट् अ प्रिण्ट् औट्?
या राइट्, ऐ केन् नाट् डू देट्.
Oh, you don't have that ability to print it at home? Is it like that?
I have, but I cannot print out yesterday.
Oh, okay. is it possible for you to get it done in a couple in few minutes now, or is it difficult, Bhagini?
I tried two times yesterday, but I couldn't print out.
Okay, but can you open that PDF and can you look at the PDF?
Let me try. Yeah.
Okay. Yeah. In the meantime, I'll ask other people. You try to access the PDF and let me answer the questions. Okay. Yeah. Because if you have the PDF, karapatram bhavantah parshve asti chet sulabha bhavishyati. Patanartham sulabha bhavishyati. धन्यवादः चिन्ता मास्तु प्रयत्नं करोतु अस्तु धन्यवादः अनन्तरं प्रगति भगिनी
आं भगिनि
तृतीय गणः कः भगिनि
तृतीयगण जुहोत्यादिः
सत्यं जुहोत्यादिः सत्यं तस्य विकरणप्रत्ययः
तस्य विकरणप्रत्ययः नास्ति
सत्यं समीचीनं परन्तु तस्य लक्षणं किं
धातोः द्वित्वं भवति
अस्तु समीचीनं धातुः द्वित्वं भवति अनन्तरं द्वितीयगणः अस्ति अदादिगणः तृतीयगणः अस्ति जुहोत्यादिगणः तयोः मध्ये भेदः कः कथं भवती जानाति अस्ति इति उदाहरणं स्वीकरोतु अथवा हन्ति इति स्वीकरोतु अनन्तरं जुहोत्यादिगणे ददाति इति उदाहरणं स्वीकरोतु कथं भेदः जानाति भवती कस्मिन् गणे
द्वितीयगणे अदादिः गणे विकरणप्रत्ययः नास्ति अपि च धातुः द्वित्वम् अपि न भवति
सत्यं सत्यं
तृतीयगणे जुहोत्यादिः गणे विकरणप्रत्ययः नास्ति परन्तु अत्र धातोः द्वित्वं भवति
सत्यं सत्यं समीचीनं धन्यवादः भगिनि स्पष्टमस्ति धन्यवादः सर्वम् एतत् सर्वम् अवगतवन्तः वा यद् भगिनी उक्तवती सविता भगिनि सविता भगिनी अवगच्छति वा
आं भगिनि अवगच्छामि भगिनि
बहु समीचीनं समीचीनं समीचीनम् अस्तु अनन्तरम् अन्ये कः माधवी भगिनी भवती अपि भागं कृतवती वा अहं पृष्टवती वा भवतीम् उद्दिश्य
भगिनि
अस्तु अस्तु इदानीं वदतु भगिनि चतुर्थगणः कः
चतुर्थगणः दिवादिगणः
सत्यं विकरणप्रत्ययः कः
ष्यन्
सत्यं पारिभाषिकशब्दः विकरणप्रत्ययः ष्यन् इति एव अस्ति परन्तु अनेकाः सोपानाः सोपानं गत्वा किं भविष्यति या एव तिष्ठति सत्यम् अतः दिवादिगणस्य विकरणप्रत्ययः या इति एव वक्तव्यम् अस्तु समीचीनम् उदाहरणं वदति वा
दीव्यति दिव् धातुः योगः या योगः ति दीव्यति
सत्यं सत्यम् अत्र यकारः मध्ये अस्ति अतः या अस्ति चेत् विकरणप्रत्यय क्रियापदस्य मध्ये या अस्ति चेत् दिवादिगणे भविष्यति सत्यं धन्यवादः भगिनि स्वादिगणः पञ्चमगणः अस्ति स्वादिगणः जानकी भगिनि
आं भगिनि
पञ्चमगणः अस्ति स्वादिगणः तस्य विकरणप्रत्ययः कः श्नु नु भवति अनन्तरं नु
नो नो
सत्यम् आम्
उदाहरणं आप्नोति
अत्र क्रियापदस्य मध्ये नु इति अस्ति आप् योगः नो योगः ति
योगः आप् नो योगः नो योगः ति योगः आप्नोति
योगः इति न आप् धातुः योगः विकरणप्रत्ययः योगः ति अत्र धातुः कः आप् इति योगः नो
नो विकरणप्रत्ययः टीङ् प्रत्ययः
सत्यं सर्वं मिलित्वा आप्नोति इति भविष्यति
आम् भगिनि
विकरणप्रत्ययः नो इति अस्ति
विकरणप्रत्ययः नो
आम् इति अस्ति धन्यवादः
धन्यवादः
भगिनि समीचीनम् सविता भगिनी भवत्याः पार्श्वे करपत्रमस्ति वा
आं भगिनि करपत्रम् अस्ति
अस्ति वा अस्तु षष्टमगणः कः
स्वादिः गणः
स्वादिगणः पञ्चमगणः
पञ्चमगणः
कस्य अनन्तरं
तुदादिः गणः
आं सत्यं तुदादिगणः इति वक्तव्यम् आं तुदादिगणः तस्य विकरणप्रत्ययः कः
श आ भगिनि
आम् विकरणप्रत्ययः अत्र श एव परन्तु कस्य केषुचित् कार्यं भविष्यति मध्ये तस्य अनन्तरं किं तिष्ठति आ एव तिष्ठति तुदादिगणस्य विकरणप्रत्ययः कः इति वदा पृच्छामि चेत् किं वक्तव्यम्
आ
एव वक्तव्यम् उदाहरणं वदति वा
आं भगिनि मिल् मिलति भगिनि मिल्
आम् सत्यं मिल्
मिलति लिखति
आं सत्यं परन्तु अत्र वर्णक्रमं कृत्वा वदति वा मिलति धातुः
मिल् धातु मिल् योगः विकरणप्रत्यय आयोगः तिङ् प्रत्यय ति
सत्यं सत्यं
मिलति इस् द फैनल्
क्रियापदं भगिनि सत्यं सत्यम् अत्र भगिनि तुदादिगणः अस्ति तस्य विकरणप्रत्ययः आ अस्ति
भगिनि भुवादिगणः भगिनि लिसन् टु युर् लास्ट् रेकार्डिङ्ग् सो
ऐ
अण्डर्स्टुड् या भगिनि भुवादिगणः परिवर्त दट् धातो शब्दो ईकारः उकारः ऋकारः आगच्छति चेत् तत् क्रियापदं परिवर्तनं भवति भवति चेत् भुवादिगणः सम्यक् शुड् अण्डर्स्टाण्ड् इट् इस् अ भुवादिगणः
सत्यं सत्यं धातौ धातौ इकारः उकारः ऋकारः तत् परिवर्तनं भविष्यति यदा क्रियापदं कुर्मः तत्र परिवर्तनं भवति देन् इट् इस् इन् भुवादिगणः
भुवादिगणः
सत्यं सत्यं उदाहरणं वदति वा
आं भगिनि वृद्ध वर्धते भगिनि ऋकार आगच्छति रुद् योगः आयोगः ति योगः सो वर्धते is the final kriyapadah
vartate kila bhagini
vartate
vardate iti na vartate etara
vartate okay bhagini vartate so that is bhuvadi ganah bhagini
kimartham bhavati
yah rukara parivartanam bhavati bhagini r parivartanam agachati na bhagini
ar ar
रू इस् कन्वर्टेड् इन् टु अर्
सत्यं
सो दट् चेञ्ज् इस् देर् इन् धातु सो दट् इस् द रीज़न् इट् इस् भुवादि गणः
सत्यं सत्यं
ओके
भागत्रयं कृत्वा वदतु भगिनि वृत् योग
ऋत् योगः आयोगः ति योग ति वर्धते
वर्तते वर्तते
वर्तते
अत्र ऋकारः परिवर्तनं कृत्वा वर्तते इति भविष्यति सत्यं तदेव भेदः भुवादिगणः अस्ति षष्टमगणः तुदादिगणः तयोः मध्ये भेदः किम् अस्ति चेत् इकारः उकारः ऋकारः अस्ति चेत् धातो धातोः मध्ये अस्ति चेत् परिवर्तनं भविष्यति तदेव
मिल् योगः आ योगः ति सो मिलति सो देर् इस् नो चेञ्ज् हियर् भगिनि आ इस्
नो चेञ्ज् इत्युक्ते परिवर्तनं नास्ति इति वदतु
न परिवर्तनं नास्ति भगिनि
देट्
इस् द मेन् डिफ्रेन्स् बिट्वीन् तुदादिः अण्ड् देन् भुवादिः
परन्तु अन्य अन्यविषयमपि वदामि परन्तु किम् इत्युक्ते पठति इति अस्ति चेत् पठति इति अथवा खादति इति पश्यामः चेत् तत्रापि परिवर्तनं न भवति किल
भगिनि
परन्तु
परन्तु लैक् यु सेड् लैक् देर् आर् सर्टन् चेञ्जस् विल् बि देर् इन्
अन्यकारणेन वयं न जानीमः परन्तु प्रथमस्थले एतद् धातुः एतस्मिन् गणे एव भविष्यति इति अपि नियमः अस्ति अस्तु अतः पट् खाद् अथवा पट् क्रीड् एतादृशधातुः भुवादिगणे अस्ति
ओके by knowing that we have to understand namagini
satyam satyam
okay
shamitam bagini karshati krishati you were explaining once again please
satyam satyam vadami ek nimishka astu atra कृष् इति धातुः अस्ति अस्तु कृष् इति धातुः तुदादिगणे भविष्यति अत्र पश्यामः चेत् पश्यतु तुदादिगणः अस्ति विकरणप्रत्ययः अस्ति अत्र उदाहरणं पश्यामः चेत् मिलति लिखति क्षिपति कृषति अस्तु एतत् सर्वम् उदाहरणम् अस्ति अत्र अत्र कृष् इति धातुः अस्ति चेत् तुदादिगणे भवति इति अस्ति अनन्तरम् अन्यथा तादृशमेव कृष् इति धातुः अस्ति भुवादिगणे अपि अस्ति अस्तु धातुः समानमेव पश्यामः वर कृष् एव अस्ति अत्र यदा वयं शृणुमः अथवा पश्यामः तयो अत्र भेदः नास्ति परन्तु कृष् इति धातुः अस्ति भुवादिगणे अपि अस्ति परन्तु तत्र क्रियापदं कथं भविष्यति वर्तमानकाले लट्लकारूपं कथं भविष्यति इत्युक्ते कर्षति इति भवति कृषति इति न अस्तु कृ अस्ति षकारः अस्ति अत्र ऋकारः कथं परिवर्तनं भविष्यति अर् इति भवति किल अथवा कर्षति इति कर् इति भवति कर्षति कृष् इति धातुः तुदादिगणे अस्ति चेत् परिवर्तनं न भवति किल तुदादिगणे सर्वदा परिवर्तनं न भवति किल अतः कृषति एव भवति अतः धातुः कस्मिन् गणे अस्ति इति दृष्ट्वा एव वयं वर्तमानकालस्य लट्लकारूपमपि कर्तव्यम् अस्ति वक्तव्यम् अस्ति सर्वदा ओ कृषति धातुः सर्वदा कृषति कृषति एव भवति इति न कस्मिन् गणे कृष् इति धातुः अस्ति इति वयं ज्ञास्यामः ज्ञातव्यमस्ति तत् ज्ञात्वा एव ओ भुवादिगणे अस्ति चेत् परिवर्तनं भवति अतः कर्षति एव भवति इति वयम् अस्माकं मनसि ज्ञानं भविष्यति अनन्तरं कृष् इति धातुः अस्ति तुदादिगणे अस्ति चेत् परिवर्तनं न भवति अतः कृषति एव भवति
meaning is same bagini karshati and krushati
karshati itte farming karshanam karoti iti krushati api eva samana artha iti eva aham chintayami
okay bagini aam bagini
aam bagini aam same name same meaning
aam samana artha hai
samana artha
then in which condition we can use the karshati and then krushati bagini
द्वयमपि समीचीनमेव परन्तु यदा वयं लट्लकारूपं वदतु कृष् इति धातोः लट्लकारूपं वदतु इति अस्ति चेत् वयं ज्ञातव्यम् अस्ति कथं वक्तव्यम् इति. तुदादिगणे कृषति इति भविष्यति, कृषति कृषतः कृषन्ति, कृषति कृषतः कृषथ, कृषामि कृषावः कृषामः इति रूपाणि सन्ति. कर्षति इति अस्ति तादृशं भिन्नरूपं भविष्यति, तदेव वक्तुमिच्छामि. अर्थः समानमेव.
धन्यवादः भगिनि.
धन्यवादः.
मिलति मिलति लिखति केन आल्सो बि इन् भुवादि गण भगिनि?
तादृशं नास्ति. एकः मिलति इति अस्ति, मेलति इति भवति.
ओ
उदाहरणार्थम् अत्र पश्यतु, एकनिमिषः अत्र पश्यतु. शुच् इति धातुः अस्ति, अस्तु, शुच् इति धातुः अस्ति. तदादिगणे भवति, तुदादिगणे अस्ति चेत् शुचति एव भवति. तदेव भुवादिगणे अस्ति, शोचति इति भवति, उकारः ओकारः भविष्यति. अस्तु, परन्तु अत्र तुदादिगणे तादृशं शुच् इति धातुः नास्ति. परन्तु कृष् इति धातुः द्वयोः स्थाने अस्ति, द्वयोः गणे अपि अस्ति. दुदादिगणे अपि कृष् इति धातुः अस्ति, भुवादिगणे अपि अस्ति, परन्तु तादृशं शुच् इति धातुः नास्ति, केवलं भुवादिगणे एव अस्ति. बट् द वे यु कन्स्ट्रक्ट् दि क्रियापदं विल् बि डिफ्रेण्ट् डिपेण्डिङ्ग् आन् विच् ग्रूप् दि वर्ब् बिलाङ्ग्स् टु.
Only with the experience like we'll
understand. Satyam, satyam. Anekani visham nyatavyam asti. Gatva, gatva, vayam sarvada, vayam kriyapadam, etas patram krutva, tasyanantaram abhyasah api asti. Abhyasam krutva, yada vayam nutana patram patamaha, oh patati bhagini bhuvadigana asti, shochati na bhagini, tadusham asmaka manasi bhavishyati, sarvada bhavishyati. नूतनपदमपि अस्ति, सर्वदा वयमपि डिक्षनरी अथवा अष्टाध्यायी इति वेब्सैट् अस्ति, तत्र अपि दृष्ट्वा दृष्ट्वा वयं ज्ञातव्यं भविष्यति.
आम्,
ज्ञातवान् अथवा स्मरणं भविष्यति, न विस्मरणं. तदेव तदपि कठिनः एव, परन्तु अभ्यासेन भविष्यति. द्वयोः टु फार्म् टु कल्टिवेट् इति एव अर्थः कृष् इति धातोः. अनन्तरं धन्यवादः.
धन्यवादः.
परन्तु शुच् इति धातुः तदादिगणे नास्ति, भुवादिगणे एव अस्ति. अस्तु, परन्तु अन्यविषयम् अस्ति. उदाहरणार्थम् अत्र पश्यतु, तुदादिगणे मिलति इति अस्ति. अस्तु, कश्चन समये सर्वदा परस्मैपदी धातवः इति अस्ति चेत् कथं भवति? पदस्य अन्ते ति इति अस्ति किल, आत्मनेपदी धातुः अस्ति चेत् ते इति भविष्यति किल, तदपि भवितुम् अर्हति. सर्वदा परस्मैपदिनः, सर्वदा आत्मनेपदिनः एव इति तादृशं नास्ति. अनन्तरं अस्तु, इदा षष्टमगणः पर्यन्तं सर्वं स्पष्टम् अस्ति वा? तस्मिन् विषये अत्र प्रश्नः अस्ति वा?
न भगिनि.
अस्तु, अभ्यासम् आवश्यकमिति अहं जानामि, परन्तु एतत् एतत् पर्यन्तं स्पष्टमस्ति वा? अग्रे गच्छामः. धन्यवादः माधवी भगिनी. सारी, सविता भगिनी, धन्यवादः.
धन्यवादः.
अनन्तरं पद्मिनी भगिनी.
आं भगिनि.
सप्तमगणः कः भगिनि?
आं भगिनि, रुदादि सप्तमगणः. रुद् इत्यादयः धातवः, रुणद्दि इत्यादीनि क्रियापदानि, विकरणप्रत्ययः श्रम् न
अत्र भवती वदति वा विकरणप्रत्ययः श्नम् पृथक् पृथक्तया वदति वा कथं भवति इति वर्णक्रमः वदति वा अश्नम्
इष्योगः
न ओके अस्तु न योगः अस्तु किं भविष्यति
श्नं भवति
श्नम् अस्ति भगिनि शियोगः न योगः इम् अस्ति अत्र शकारः गच्छति मकारः गच्छति बाक्स् इति अत्र चिन्तयामः बाक्स् इति चिन्तयामः अत्र पेकिङ्ग् मेटीरियल् किम् अस्ति शकारः मकारः पेकिङ्ग् मेटीरियल् इति सत्यं सत्यं तदेव तिष्ठति सत्यम् उदाहरणं वदति वा दृष्ट्वा वदतु दृष्ट्वा वदतु
चिनति
छिद् इति धातुः
छिद् इति धातुः न विक्रणप्रत्ययः
अस्तु
तिङ्प्रत्ययः
अत्र सन्धिकार्यं भविष्यति तस्मिन् विषये वयं न पठितवन्तः अतः सरलरीत्या वयं पश्यामः अस्तु चिद् इति धातुः विकरणप्रत्ययः न ति इति तिङ्प्रत्ययः मिलित्वा छिन्नति इति अस्ति आम् आम् अनन्तरं
धातुः न विकरणप्रत्ययः अत्र न भविष्यति
किमर्थं न भवति
रत्वं भवति
सत्यं
तृणति तिङ्प्रत्ययः
सत्यं
भिनति धातुः न विकरणप्रत्ययः ति तिङ्प्रत्ययः
बिन् इति धातुः भिन्नति भवति
भिन्नति भुज् धातुः न विकरणप्रत्ययः ति तिङ्प्रत्ययः भुनति भुङ्क्ते
अत्र पश्यतु
आत्मनेपदी
सत्यम् अतः भुज् इति धातुः कीदृशधातुः अस्ति अहम् अत्र वदामि परस्मैपदिनः वा उभयपदिनः वा अथवा आत्मनेपदिनः वा उभयपदिनः किमर्थम् उभयपदिनः
परस्मै पदिन अस्ति पदमस्ति परस्मैपदमस्ति आत्मनेपदम् अतः
उभयपदिनः इति वक्तव्यं सत्यं सत्यम् उदाहरणार्थं क्रु इति धातुः अस्ति चेत् तस्य
कृषति
कृष्यति न भगिनि लट्लकारूपं कथं भवति भगिनि क्रु इति धातु कष्टमस्ति वा भगिनि
भगिनि
करोति कुरुते
कुरुते
अतः ते आत्मनेपदिनः वा परस्मैपदिनः वा उभयपदिनः वा
उभयपदिनः
सत्यं यदा धातुः अस्ति एकः धातुः अस्ति तस्य परस्मैपदिनः क्रियापदमस्ति अपि अस्ति आत्मनेपदिनः क्रियापदमपि अस्ति चेत् उभयपदिनः इति वक्तव्यम् स्पष्टमस्ति वा इदानीम् अनन्तरम् अन्य उदाहरणमपि अस्ति तदपि पठतु
युज् युज् धातुः न विकरणप्रत्ययः तिङ्प्रत्ययः युनक्ति
सत्यं सत्यम् अत्र न अस्ति विकरणप्रत्ययः कुत्रापि वयं सप्त गणाः वयं पठितवन्तः, तत्र कुत्रापि न विकरणप्रत्ययः इति न आगतं किल, अतः एकमेव अस्ति रुदादिगणे एव न अस्ति विकरणप्रत्ययः। जानकी भगिनी, केन् यु प्लीस् म्यूट् भगिनी फ्रम् युर् सैड्? धन्यवादः, धन्यवादः भगिनी,
धन्यवादः।
स्पष्टमस्ति वा भगिनि एतत् पर्यन्तम्?
आं भगिनि,
धन्यवादः। अनन्तरम् अष्टमगणः अस्ति धनादिगणः इति, सम्पूर्णं भगिनी अस्ति वा?
आं भगिनि, इदानीमेव आगच्छामि।
चिन्ता
मास्तु भगिनि।
भगिनि अत्र अष्टमगणः वदति वा?
तनादिगणः भगिनि,
आमां पठतु कृपया, पठतु। आम् चम्पा भगिनी, भवत्याः पार्श्वे दृष्ट्वा वक्तुं शक्नोति वा भवती? अस्तु अस्तु, क्रमः अनन्तरं भवती पठतु।
अस्तु भगिनि,
भवती वदतु सम्पूर्णं
भगिनी। गणः अष्टमगणः इत्यादयः धातवः, तनोति इत्यादीनि क्रियापदानि, विक्रणप्रत्ययः उ, ओ।
उ कथं भविष्यति? ओ इति भवति,
उ ओ भवति। उदाहरण क्रु करोति,
अत्र ओ अस्ति वा? करोति इति शब्दे पदमस्ति, तस्य मध्ये ओकारः अस्ति वा?
आं भगिनि, करो
ओ अस्ति।
क्रु धातु तृण धातु, तृणोति नो उणोति, खादति खादति,
तृणोति इति पदस्य अर्थः किम् इति लिखितमस्ति तावदेव।
ओ ओके, सन् तनोति,
तनोति इत्युक्ते किं? ददाति इति एव अर्थः।
ओके
अस्तु, अत्र भगिनी एकः प्रश्नः अस्ति, सन् इति धातुः तस्य वर्तमानकालः अस्ति सनोति, तृण् इति धातुः अस्ति तस्य वर्तमानकालः अस्ति तृणोति इति, अत्र नकारः भिन्नः अस्ति, किमर्थं भगिनि?
सनोति
सनोति नो, अत्रापि नकारः अस्ति, तृणोति अत्रापि नकारः अस्ति, किमर्थं भेदः अस्ति?
निमित्तम् अस्ति भगिनि।
भगिनि एकनिमिषः, अहं चम्पा भगिनीम् उद्दिश्य एव पृच्छति किल, सा अपि पठनीयं किल, सा चिन्तयित्वा वदति, प्रयत्नं समयं दातव्यं, चिन्ता
मास्तु।
प्रश्नः कः इत्युक्ते, तृण् इति धातुः अस्ति, अत्र नकारः किम् अस्ति, अनन्तरं सन् इति धातुः
अनभवति, नो नो भवति,
अत्र तृण् इति धातोः मध्ये एव नकारः अस्ति, न मूर्धन्यनकारः एव अस्ति, अनन्तरं रु अपि अस्ति,
रु। प्रश्नः कः भगिनि?
चिन्ता मास्तु भगिनि, किं वक्तव्यं, किम् अहं वक्तुम् इच्छामि इत्युक्ते, केषुचित् स्थलेषु नकारः मूर्धन्यणकारः भविष्यति, कस्मिन् कारणेन तादृशं भविष्यति?
नो भवति,
न नत्वं, नत्वम् इति वयं पठितवन्तः किल, तादृशं ऋकारः रेपः षकारः इति अस्ति चेत् नकारः मूर्धन्यणकारः भवति, परिवर्तनं भवति इति वयं पठितवन्तः, परन्तु अत्र तादृशं कार्यं न भविष्यति, किमर्थम् इत्युक्ते अत्र तृण् इति धातोः मध्ये एव मूर्धन्यनकारः अस्ति, अवगच्छति वा अहं किं वदामि? अस्तु, तनादिगणे विकरणप्रत्ययः कः भगिनि?
तनादिगणे विकरणप्रत्ययः ओ.
ओ अस्ति. सर्वे स्मरन्तु, तनादिगणे विकरणप्रत्ययः ओ अस्ति. करोति ओकारः अस्ति, तृणोति ओकारः अस्ति, सणोति ओकारः अस्ति. अस्तु, अतः विकरणप्रत्ययः ओ अस्ति. धन्यवादः भगिनि.
धन्यवादः भगिनि.
अनन्तरं सम्पूर्णं भगिनि.
आं भगिनि, नमस्कारः भगिनि.
नमस्कारः. नवमगणः
क्रियातिः. क्रियातिः नवमः गणः स्त्री इत्यादयः धातवः क्रीणाति इत्यादीनि क्रियादानि क्रियापदानि विकरणप्रत्ययः इषु लोपः भवति. न एव विकरणप्रत्ययः. उदाहरणः गृह गृह्णाति ऋ आगच्छति चेत् नत्तु अस्ति अथवा गृह्णाति. ज्ञा ज्ञानाति आश् अश् अश् भगिनि अश् अश्नाति.
एकनिमिषं भगिनि, एकनिमिषं. अत्र ज्ञा इति धातुः अस्ति. अत्र क्रियादिगणः क्रियादिगणः नवमगणः अस्ति. तस्य विकरणप्रत्ययः ना. अस्तु, ना इति अस्ति. अस्तु, अत्र
उदाहरणमस्ति.
एकनिमिषः. अत्र उदाहरणं पठितवती, न्या इति धातु पठितवती किल. तस्य लकाररूपं कथम् अस्ति? ज्ञानाति इति नास्ति, जानाति इति अस्ति. अवगच्छति वा?
आं भगिनि. स्ना अस्ति, स्र इन् प्लस् ना.
सत्यं सत्यं. न न, अहं किं वदामि इत्युक्ते, भवती उक्तवती ज्ञा इति धातुः ज्ञानाति इति उक्तवती.
जानाति.
सम्यक्. तदेव अहं सूचयामि, ज्ञा इति धातुः तस्य लट्लकारूपं जानाति इति.
जानाति. विकरणप्रत्यय तिङ् प्रत्यय ति अथवा तदेव जानाति.
सत्यम्.
अश् अश्नाति, वृ वृणाति, रु आगच्छति चेत् नत्वम् आगच्छति. बद् बध्नाति, सि सिनाति.
धन्यवादः भगिनि. धन्यवादः. नवमगणः अस्ति क्रियादिगणः. अस्तु, तस्य विकरणप्रत्ययः कः? ना इति विकरणप्रत्ययः. ह्रस्व न इति अस्ति चेत् कस्य गणः तस्य गणः नाम किं? प्रगति भगिनी वदति वा?
हरि ओं भगिनि.
हरि ओं. ह्रस्व केवलं न इति एव अस्ति चेत्, विकरणप्रत्ययः न अस्ति चेत् कस्मिन् गणे भविष्यति?
रुदादिः.
आम्, सत्यं. रुदादिगणे न एव अस्ति, परन्तु न इति अस्ति चेत् कः कस्मिन् गणे?
क्रियादिः गणे.
सत्यं. धन्यवादः. धन्यवादः. केवलं वेदं सूचयामि, अत्र न इति अस्ति चेत् रुदादिगणः अस्ति, न इति अस्ति चेत् क्रियादिगणः अस्ति. अस्तु, अत्र पश्यामः उदाहरणम्. अत्र पश्यामः गृह् इति अस्ति धातुः. अत्र पश्यामः चेत् गृह्णाति इति अस्ति. अत्र मतद्वयम् अस्ति. मतद्वयं नाम देर् आर् टु डिफ्रेण्ट् कैण्ड्स् आफ् ओपीनियन्स् इति. मतम् इति वदामः चेत् टु डिफ्रेण्ट् कैण्ड्स् आफ् स्कूल्स् अथवा ओपीनियन्स् इति तादृशं चिन्तयामः. अस्तु, केषुचित् केचन जनाः वदन्ति गृह्णाति इति वदतु अति इति. अस्तु, गृह्णाति इति वदतु. अनन्तरं अन्यमतं वदति गृह्णाति इति वदतु इति. अवगच्छति वा अहं किं वदामि इति?
आं भगिनि. गृह्णाति.
आम् आम्. एकस्मिन् गणे एकस्मिन् मते जनाः वदन्ति नकारः प्रथमं वक्तव्यम् इति. अनन्तरम् अन्यमहतया वदन्ति नकारः अनन्तरमेव भविष्यति, गृह्णाति इति एव वक्तव्यम् इति वदन्ति. अस्तु, भवतः सौकर्यं. परन्तु अत्र कृषिति धातुः किमर्थं मूर्धन्यनकारः अत्र अस्ति अस्ति चेत् रेपः अत्र अस्ति, अतः गृह्णाति इति भविष्यति. अस्तु, अनन्तरं न्याय् इति धातुः किमर्थं जानाति इति अस्ति चेत् उच्चारणप्रसङ्गे न्या इति अस्ति चेत् जा एव भवति इति अस्ति. अत्रापि पश्यन्तु तृतीयगणे अपि जुहोत्यादिगणः इति अस्ति. अत्रापि उच्चारणप्रसङ्गे अथवा उच्चारणसौकर्यार्थं जा इति स्थाने हू इति धातुः अस्ति. उच्चारणसौकर्यार्थं जुहोति इति भवति किल, तृतीय गणे अहं वदामि किल. परं तादृशमपि तादृशमपि नवमगणे न्याय् इति धातुः अस्ति, जा इति आगच्छति, जानाति इति क्रियापदम् अस्ति. अनन्तरम् अश् इति धातुः अश्नाति, अत्र ना इति अस्ति, अश्नाति इत्युक्ते खादति इति एव अर्थः. अत्र वृ इति धातुः वृणाति, वृ इति ऋकारः अस्ति, अत्र ऋकारः अस्ति, अतः नत्वं भविष्यति, वृणाति. स्तब् स्तब् इति धातुः स्तब्नाति.
वृणाति किम् अर्थं भगिनि, अर्थं किं वृणाति?
वृणाति वृ इति धातुः इत्युक्ते बहवः अर्थः अस्ति, परन्तु टु चूस् इति अर्थः, टु सेलेक्ट्, टु मेरि, टु फैनलैस् इति बहवः अर्थाः सन्ति भगिनि. सन्दर्भानुसारेण कः अर्थः भविष्य अत्र भवति इति दृष्ट्वा एव वक्तव्यं वयम्. वृणोति अत्र क्रियापदं, वृणम् इति नामपदं न वक्तव्यं भगिनि, अत्र क्रियापदं वक्तव्यं किल. वृ इति धातुः अस्ति चेत् वृणोति, वृणाति इति अस्ति, वृणोति इति अस्ति चेत् अत्र स्वादिगणे अस्ति. अस्तु, अत्र क्रियादिगणः आवश्यकं किल. क्रियादिगणे अस्ति चेत् वृणाति इति अस्ति, तस्य अर्थः किं भवति इत्युक्ते प्रायः टु सर्व्, टु वर्षिप् इति तादृशम् अर्थः अस्ति इति वदन्ति.
ओके,
क्रियादिगणः
मेडम् इट् इस् क्रियादिगणः आर् क्रयादिगणः?
क्षम्यतां, क्रयादिगणः, क्रयादिगणः, क्षम्यतां, मम दोषः. तदेव. अनन्तरं स्तब् इति धातुः स्तब्नाति, बद् इति धातुः बध्नाति. अत्र किं नत्वं नास्ति, अतः केवलं नकारः एव तिष्ठति, मूर्धन्यनकारः नास्ति. अस्तु
भगिनि, धातु बन् बन्द् अस्ति,
बन्द्
बध्नाति, सो किमर्थं न न भविष्य बन्द् मिरुल् न कुत्र गच्छति?
अत्र किमपि कार्यं भविष्यति, कार्यं यदा धातुः अस्ति अनन्तरं क्रियापदम् अस्ति चेत् सोपानेन अनेकानि कार्याणि भवति भगिनि.
ओके,
अस्तु, अतः कथं तादृशं भवति इति व्याकरणरीत्या वयं पश्यामः चेत् तत्रैव तस्मिन् विषये पठामः. इदानीं केवलं सरलरीत्या गणस्य विषये एव पठामः. अस्तु, धन्यवादः भगिनि,
धन्यवादः भगिनि.
अस्तु, अनन्तरं चूरादिगणः, शोभना भगिनी भवती एव पठति वा?
आं भगिनि चुरादिः दशमः गणः इत्यादः धातवः चोरयति इत्यादीनि क्रियापदानि स्वार्थे णिच् प्रत्ययः तदा विक्रणप्रत्ययः शप् शप् अ अतः आहत्य अय
अत्र अस्तु अग्रे अपि पठतु अहं वदामि
उदाहरण क्षल क्षालयति प्रेष प्रेष प्रेषयति गत् कथयति गण गणयति चिन्त चिन्तयति भक्ष भक्षयति
अस्तु अत्र अत्र सर्वत्र विकरणप्रत्ययः कः अस्ति किम् अस्ति
कः अस्ति
न न अय्या अत्र पश्यतु क्षालयति अय्या इति अस्ति किल
अय्या
अय्या एव अत्र अस्ति अय्या क्षालयति अय्या प्रेषयति प्रेषयति अय्या इति अस्ति कथयति कथयति अय्या अस्ति गायति अय्या अस्ति चिन्तयति अय्या अस्ति भक्षयति अय्या अस्ति अस्तु अत्र अय एव चुरादिगणस्य विकरणप्रत्ययः कः इत्युक्ते अय एव वक्तव्यम् अस्तु
अस्तु
अत्र अत्र किं वदन्ति चेत् चुरादिगणः दशमगणः चुर् इत्यादयः धातवः चुर् इति धातोः क्रियापदं कथमस्ति चोरयति इति अस्ति अत्रापि अय अस्ति इत्यादीनि क्रियापदानि स्वार्थे निच् अत्र निच् प्रत्ययः नि निच् प्रत्ययः योगः आ एव मिलित्वा अय इति भवति तस्य तयोः मध्ये किमपि कार्यम् अस्ति भगिनि कार्यं कथम् अस्ति किमपि कार्यं कथं भवति इति मया अत्र न प्रतिपादितवन्तः किमर्थम् इत्युक्ते व्याकरणरीत्या अनेकानि सोपानानि सन्ति अतः अत्र लघुरूपेण महोदय लिखितवान् अस्ति चुरादिगणः इति अस्ति चेत् अय एव विकरणप्रत्ययः इति अस्ति अस्तु
अस्तु
अतः किं वदामि चेत् अत्र पश्यामः चेत् अय अय इति स्वरद्वयम् अस्ति अतः यदा पश्यामः चेत् क्रियापदं दीर्घं भवति इति भावः भविष्यति पठति इति पश्यतु केवलं स्वरं त्रयः एव परन्तु अत्र पश्यामः चेत् अय इति द्वयम् अस्ति अतः किञ्चित् क्रियापदं पश्यामः चेत् दीर्घं भविष्यति अय इति स्वरद्वयम् अस्ति किल अतः अवगच्छति वा
अवगच्छामि भगिनि धन्यवादः
धन्यवादः इतोपि अपि वक्तव्यमस्ति किं वक्तव्यम् इत्युक्ते अत्र स्वादिगणः स्वादिगणः कुत्र अस्ति तस्य विकरणप्रत्ययः कः एकनिमिषः अखिला भगिनि भवती वदति वा स्वादिगणः
आं भगिनि स्वादिगणस्य विकरणप्रत्ययः य अस्ति य
भगिनि भगिनि सावधानेन दृष्ट्वा वदतु सावधानेन दृष्ट्वा वदतु स्वादिगणः राधिका भगिनि सावधानेन वयं वदामः सा चिन्तयित्वा वदति अस्तु
स्नु no changes to no changes to no 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 bhavati no bhavati
ekanushah aham whatsapp madhyamena ekam preshayishyami sarve tad drushtva pashyantu sarve ekanushah सर्वे प्राप्तवन्तः वा इति दृष्ट्वा वदन्तु सम्यक्तया अनन्तरं उत्तम पी डी एफ् अहं प्रेषयिष्यामि, परन्तु इदानीं सर्वेषां पार्श्वे अस्ति वा?
आं भगिनि,
प्राप्तवन्तः वा? सर्वे प्राप्तवन्तः वा? ओ इट्स् टर्निङ्ग्, ओके ओके, जस्ट् फार् द मोमेण्ट् ऐ एम् अनेबल् टु शेर् द स्क्रीन्, नेक्स्ट् वीक् ऐ विल् बि एबल् टु डू बेटर्, बट् जस्ट् फार् द मोमेण्ट् ऐ वाण्ट् टु शेर् दिस्. यदा यदा वयं पृच्छामः चेत् भुवादिगणस्य विकरणप्रत्ययः कः इति पृच्छामः चेत् केवलम् अन्तिमस्तम्भे किम् अस्ति तदेव वदतु सर्वे, अस्तु? भुवादिगणस्य विकरणप्रत्ययः कः? सत्यम्. अदादिगणस्य विकरणप्रत्ययः कः? जुहोत्यादिविकरणप्रत्ययः कः? दिवादिगणस्य स्वादिगणस्य रुदादिगणस्य रुदादिगणस्य तनादिगणस्य क्रियादिगणस्य चुरादिगणस्य तावत् तदेव वदन्तु सर्वे, तदेव वदन्तु अग्रे गत्वा, अस्तु? धन्यवादः सर्वेषां, धन्यवादः, बहु धन्यवादः. अस्तु, इदानीम् अखिला भगिनी भवती वदतु, स्वादिगणस्य विकरणप्रत्ययः कः?
नो, नो भवति.
सत्यम्. एकनिमिषः, अहं सर्वे अहं म्यूट् करोमि, अनन्तरं भवती एव अन्म्यूट् कृत्वा वदतु कृपया, क्षम्यताम्. अखिल भगिनी भवती अन्म्यूट् कृत्वा वदति. धन्यवादः. स्वादिगणस्य विकरणप्रत्ययः कः?
स्वादिगणस्य विकरणप्रत्ययः नो भवति.
सत्यम्. अनन्तरं तनादिगणः, तनादिगणः सप्तमगणः, पश्यतु.
आम् भगिनि,
पश्यति चेत् तनादिगणस्य विकरणप्रत्ययः कः?
ओ भवति. ओ भवति,
अस्तु, तदेव सर्वे मनसि तदेव दृश्यतु. स्वादिगणस्य विकरणप्रत्ययः नो अस्ति, तदा तनादिगणे विकरणप्रत्ययः ओ अस्ति.
ओ,
अस्तु, अत्र पश्यन्तु सर्वे, उदाहरणं पश्यन्तु. आप्नोति ओ अस्ति, चिनोति ओ अस्ति, शक्नोति ओ अस्ति, धूनोति ओ अस्ति. अत्रापि ओकारः अपि ध्वनिः ध्वने भवति किल? ध्वने भवति किल? अतः किञ्चित् समये भ्रमः भविष्यति, करोति, शृणोति, सनोति इति, शक्नोति इति शृणुमः चेत् अथवा पश्यामः चेत् अत्र नो अपि अस्ति, ओकारः अपि ध्वने भवति, कस्मिन् गणे भविष्यति इति भ्रमः भविष्यति किल? किल? तस्य उत्तरं किं भविष्यति? कथं भेदः जानाति? सर्वे चिन्तयतु, सर्वे चिन्तयन्तु. अस्तु, इदानीम् अखिलां भगिनीम् अहम् उद्दिश्य पृच्छामि, भवती अपि सावधानेन चिन्तयतु भगिनी, टेन्शन् नास्ति, लज्जा न भवतु, चिन्तयतु, सावधानेन चिन्तयित्वा वदन्तु.
अत्र भगिनी स्वादिगणे नो भवति, श्नु तत्र नो सन्धिकार्यं चेत् नो भवति.
सर्वं त्यजतु. अतः एव अहम् एकं टेबल् प्रेषितवती, केवलं नो ओ तादृशमेव चिन्तयतु, अन्यविषयं न चिन्तयतु.
ओ ओ ओ,
चिन्ता मास्तु भगिनि, अहं वदामि, चिन्ता मास्तु, भ्रमः मास्तु, अहं वदामि. प्रगति भगिनी भवती सहायं कर्तुं शक्नोति वा? धन्यवादः अखिला भगिनी, धन्यवादः.
धन्यवादः भगिनि.
आं भगिनि.
अत्र स्वादिगणे विकरणप्रत्ययः नो अस्ति, तनादिगणे विकरणप्रत्ययः ओ अस्ति. तयोः मध्ये भेदः सः भगिनि. किमर्थमित्युक्ते अत्र तृणोति अस्ति, अत्रापि नो अस्ति. चिनोति अस्ति, अत्रापि नो अस्ति. परन्तु कस्मिन् गणे भवति अत्र नो अस्ति, ओ अस्ति, कस्मिन् गणे भविष्यति इति कथं भवती जानाति
भगिनि? स्वादिगणे धातुः दातु भगिनि.
एकनिमिषः, सम्पूर्णं भगिनि वा?
आं भगिनि, आं भगिनि.
यदा भवत्याः क्रमः अस्ति तस्मिन् समये वदतु. किमर्थम् इत्युक्ते अन्ये अपि भागम् औढुं शक्नोति, चिन्तयति किल. धन्यवादः, धन्यवादः
भगिनि. पञ्चमगणे स्वादिः गणे विकरणप्रत्ययः नो अस्ति, अथैव क्रियापदे आप्नोति न अपि आगच्छति, न नकारः अपि अस्ति. एण्ड् तनादिः गणे अष्टमगणे विकरणप्रत्ययः ओ अस्ति, तत् अत्र नकारः नास्ति. सो क्रूधातु तु करोति, ओ अस्ति परन्तु नकारः नास्ति.
सत्यं सत्यं, तदेव भेदः. परन्तु किञ्चित् स्पष्टी कर्तव्यं चेत्, यदा धातोः नकारः धातोः भागे अस्ति चेत् अस्तु, यदा नकारः धातोः भागे भागम् अस्ति चेत् तदा स्वादिगणः. क्षम्यताम्, तनादिगणः. क्षम्यतां क्षम्यताम्. अत्र पश्यन्तु, उदाहरणार्थम् आप्नोति, चिनोति, शक्नोति. अत्र तस्य तस्य धातुः पश्यामः चेत् आप् इति धातुः, चि इति धातुः, शक् इति धातुः, धू इति धातुः. सर्वत्र सर्वत्र यद्वयं दृष्टवन्तः, सर्वत्र नकारः धातोः मध्ये नास्ति, धातोः भागः नकारः नास्ति. अस्तु, केवलं विकरणप्रत्ययः एव नो अस्ति. अस्तु, परन्तु तनादिगणे पश्यामः चेत् अत्र धातोः भागः अस्ति नकारः, अतः तृणोति इति अस्ति चेत् अत्र तनादिगणः इति वक्तव्यं. नकारः धातोः भागः, न तु विकरणप्रत्ययस्य भागः, अतः तनादिगणः इति वक्तव्यम्. सन्निति पश्यामः चेत् अत्रापि नकारः धातोः भागः, न तु विकरणप्रत्ययः. विकरणप्रत्ययः ओक ओ एव अस्ति, अतः तनादिगणः इति अस्ति. स्पष्टमस्ति वा?
नास्ति भगिनि,
यस् यस् यस्, ऐ विल् डु, ऐ विल् डु. एकनिमिषः, अहं लिखामि, लिखित्वा अहं फोटो अपि स्वीकृत्य अहं प्रेषयिष्यामि. अस्तु अस्तु.
क्षम्यतां भगिनि, किन्तु शेरिङ्ग्
अग्रिमः, मम समीपे इदानीम् ऐपेड् नास्ति भगिनि.
ओके, धन्यवादः.
अतः एव किञ्चित्
धन्यवादः
क्लिष्टः अस्ति. अग्रिमवासरे मम पार्श्वे ऐपेड् भविष्यति, तस्य अनन्तरं पुनः एकवारम् अहं तदेव पाठयिष्यामि. अस्तु,
चिन्ता मास्तु भगिनि.
इदानीं केवलम् अहं वदामि, सर्वे एकवारं लिखन्तु, लिखन्तु. इदानीं पश्यामः. अस्तु, सर्वे चि इति धातुः लिखन्तु. अस्तु, चि इति धातुः लिखन्तु. तस्य क्रियापदं किम् इति लिखन्तु. चिनोति इति लिखन्तु, चिनोति. अस्तु, अत्र विक्रणप्रत्ययः कः? विक्रणप्रत्ययः कः इत्युक्ते नो एव. अस्तु, नो एव, नो एव विक्रणप्रत्ययः अस्ति. अनन्तरम् अन्यक्रियापदं स्वीकुर्मः. सनोति इति. सन् इति धातुः, सन् इति धातुः, तत् लिखन्तु सर्वे. अहमपि लिखामि, लिखित्वा अहमपि फोटो प्रेषयिष्यामि. अस्तु, सन् इति धातुः अत्र पश्यामः. सनोति इति लिखन्तु, स नोति इति लिखन्तु. अत्र विकरणप्रत्ययः कः इत्युक्ते ओ, ओ एव विकरणप्रत्ययः. सत्यम्, ओ एव विकरणप्रत्ययः, न तु नो. अस्तु, विकरणप्रत्ययः अस्ति ओ एव. चि इति स्वादिगणे अस्ति, सन् इति अस्ति चेत् तनादिगणे. तयोः मध्ये भेदः कः, अहं फोटो प्रेषयिष्यामि, दृष्ट्वा वदन्तु सर्वे, स्पष्टम् अस्ति वा, कथं भेदः. इदानीं प्रेषितवती, शाडो अस्ति, क्षम्यताम्. प्राप्तवन्तः वा?
आं भगिनि.
माधवी भगिनि, अत्र अहं किं वक्तुम् इच्छामि इत्युक्ते, नकारः सनोति इति पश्यामः चेत् नकारः कुत्र भविष्यति, धातोः धातोः भागः अस्ति नकारः. माधवी भगिनी अस्ति वा?
आं भगिनि.
दृष्टवती वा भगिनी चित्रम्?
आम् आं भगिनि.
अत्र सनोति इति पश्यामः चेत् अत्र नो अपि अस्ति, परन्तु न यो इन् योगः ओ एव नो भविष्यति किल.
आं भगिनि.
अत्र न कुत्र भवति, विकरणप्रत्ययः अस्ति वा अथवा धातोः मध्ये अस्ति, धातोः भागः अस्ति वा?
धातौ अस्ति भगिनि.
धातौ अस्ति, अतः नो अत्र विकरणप्रत्ययः न, ओका ओ एव विकरणप्रत्ययः. सनोति इति क्रियापदे न नकारः धातोः भागः अस्ति, विकरणप्रत्ययः नास्ति, परन्तु स्वादिगणे नो एव विकरणप्रत्ययः, तथैव भेदः. तादृशमेव वयं भेदं दृष्ट्वा वक्तव्यमस्ति, स्वादिगणे वा तनादिगणे वा इति. पद्मिनी भगिनि, अत्र द्वयोः स्थाने चि इति धातुः अस्ति चिनोति, सन् इति धातुः सनोति, द्वयोः स्थाने अपि नो इति अस्ति मध्ये किल. नो इति अस्ति चेत् कस्य कस्मिन् गणे नो भवति विकरणप्रत्ययः?
स्वादिगणे.
स्वादिगणे साधारणतया वयं किं वक्तुं शक्नुमः, ओ नो अस्ति चेत् स्वादिगणः इति साधारणतया वयं वदामः किल.
आं भगिनि.
तदेव सत्यमेव, परन्तु
सन् धातु अस्ति, सनोति सन् प्लस् ओ, सन् योगः ओ योगः ति.
सत्यं सत्यम्.
अतः सनादिगणे भविष्यति.
सत्यम्, अत्र ओ एव, ओ एव विकरणप्रत्ययः,
विकरणप्रत्ययः
न बिलाङ्ग्स् टु धातुः, अतः ओ एव विकरणप्रत्ययः, सो इट् डस् नाट् बिलाङ्ग् टु स्वादिगणः इति एव वक्तुम् इच्छामि.
आं भगिनि, अवगच्छामि.
अग्रे गत्वा गत्वा अनेकानि उदाहरणानि वयं पश्यामः, परन्तु इदानीं वयं यदा वयं पठामः किञ्चित् किञ्चित् भेदः अस्ति चेत् तदपि वक्तुम् इच्छामि, तावदेव. यदा भूवादिगणः तुदादिगणः तयोः मध्ये भेदः कः इत्युक्ते सविताभगिनी उक्तवती इकारः उकारः ऋकारः अस्ति चेत् परिवर्तनं भवति, स्वरः परिवर्तनं भविष्यति चेत् भूवादिगणः इति. तादृशं स्वादिगणः तनादिगणः तयोः मध्ये भेदः कः इति अस्ति चेत् नकार तनादिगणे नकारः अस्ति चेत् धातोः भागः भवति, परन्तु स्वादिगणे धातोः भागः नो नकारः नास्ति, सर्वदा नो भविष्यति.
भगिनि भ्वादिगण एव गुणवृत्त्या आगच्छति वा भगिनि?
सत्यं सत्यं सत्यं.
धन्यवादः.
इदानीं माधवी भगिनि भवती वदति वा, स्पष्टमस्ति वा?
आं भगिनि.
किञ्चित् भ्रमः भवति वा?
न भगिनि, किन्तु क्रियापदे यदा नो आगच्छति चेत् धातोः ज्ञानम् आवश्यकं खलु भगिनि?
आं सत्यम्, अग्रे गत्वा गत्वा आं तदेव प्रमुखविषयः भगिनि. सत्यं यद्भवती उक्तवती तत् सत्यम्. अग्रे गत्वा गत्वा वयम् अत्रापि अहं वाट्सप् मध्ये अन्य अभ्यासपत्रमपि प्रेषितवती, दृष्टवती वा?
आं भगिनि.
तद् दृष्ट्वा मुद्रणं करोति चेत् पश्यन्तु सर्वे अत्र धातुः अपि अस्ति क्रियापदमपि अस्ति.
आं भगिनि,
किल धातुः अपि अस्ति क्रियापदमपि अस्ति. तद् दृष्ट्वा एव वक्त्यं, सर्वदा अग्रे गच्छामः चेत् सर्वदा वयं द्वयमपि दृष्ट्वा दृष्ट्वा एव वक्तुं शक्नुमः, तस्य ज्ञानेन अपि सम्यक्तया लेखितुमपि शक्नुमः वयम्. अभ्यासेन भविष्यति भगिनि, ज्ञानम् अधिकम् आवश्यकम् अस्ति, परन्तु अभ्यासेन भविष्यति, सुलभः भविष्यति. परन्तु इदानीं स्पष्टमस्ति वा यद् भेदः कः इति? स्पष्टमस्ति वा? अस्तु, स्वादिगणे माधवी भगिनी भवती वदतु, स्वादिगणे सर्वदा विकरणपतेः क्रियापदे किं मध्ये अस्ति?
नो
नो, सर्वदा नो अस्ति. तनादिगणे विकरणप्रत्ययः कः?
ओ
ओ अस्ति. कस्मिन् समये नो भविष्यति तनादिगणे?
नकारः धातौ अस्ति चेत् एव नो क्रियापदे नो आगच्छति.
बहु समीचीनं बहु समीचीनं, तावदेव तावदेव.
पुनः पुनः वदतु भगिनि.
अहं पृच्छामि, सा वदति अस्तु. तनादिगणे कस्मिन् समये इत्युक्ते वेन् इन् तनादिगणे वेन् विल् यु गेट् नो इति अहं मम प्रश्नः अस्तु. माधवी भगिनी भवती वदति वा?
धातौ नकारः अस्ति चेत् क्रियापदे नो आगच्छति.
सत्यम्. उदाहरणार्थम् इदानीं पश्यामः, उदाहरणार्थम् अत्र तन् इति अस्ति इदानीं. करोति इति स्वीकरोतु.
तनोति,
करोति, करोति स्वीकरोतु. कृ इति धातुः अस्तु. अत्र ओकारः अस्ति, कृ इति धातोः क्रियापदं किं? करोति. अत्र नकारः अस्ति वा? किमर्थं नास्ति?
रो अस्ति, करो रो ओ अस्ति.
अवगच्छामि, ओ एव विकरणप्रत्ययः अतः करोति इति एव अस्ति. किमर्थं नकारः नास्ति अत्र?
धातुमध्ये नकारः नास्ति.
धातुमध्ये नकारः नास्ति अतः आवश्यकं नास्ति. माधवी भगिनी
आं भगिनि
अस्तु. उदाहरणम् अन्य उदाहरणं पश्यामः. तृण् इति पश्यन्तु सर्वे, तृण् इति धातुः अस्तु, तृणोति इति अस्ति, परन्तु तनादिगणः अस्ति, तृणोति. किमर्थं नकारः अत्र मध्ये अस्ति?
तृण् धातुः अस्ति, धातौ नत्वम् अस्ति.
केवलं नत्वं न, नत्वम् अत्र नत्वं न वक्तव्यं, नकारः अस्ति, नकारः अस्ति,
धातौ नकारः अस्ति, अतः नो आगच्छति.
अस्तु, सत्यम्. अनन्तरं सन् इति पश्यतु, सन् इति धातुः क्रियापदमस्ति, सनोति. अत्र विकरणप्रत्ययः किम् अस्ति? ओक ओ एव विकरणप्रत्ययः, परन्तु नो इति मध्ये अस्ति. किमर्थं नकारः अत्र अस्ति, आगच्छति?
धातुः सन् अस्ति, धातौ नकारः अस्ति, तदर्थं क्रियापदे नो आगच्छति.
सत्यं, सत्यं. धातुः धातौ नकारः नास्ति चेत् कृ इति धातुः, अत्र नकारः अस्ति वा? नास्ति, अतः करोति एव भवति.
आं भगिनि.
अस्तु, अनन्तरम् एकनिमिषः. रुन् इति धातुः अस्ति भगिनि. अस्तु, अन्य उदाहरणम् अहं वदामि. रुन् इति धातुः अस्ति, अस्तु, रुणोति इति एव क्रियापदम्. अस्तु, अत्र गणः कः?
तनादिगणः.
अत्र तनादिगणः विकरणप्रत्ययः कः? ओ ओ एव, परन्तु अत्र इन् अस्ति. क्रियापदे नकारः किमर्थम् अस्ति?
भगिनि,
ओ अस्तु अस्तु भगिनि, रुन् इति धातुः.
आं भगिनि,
रुन् इति धातुः क्रियापदमस्ति, रुणोति. गणः अस्ति तनादिगणः. किमर्थम् अत्र नकारः मध्ये अस्ति?
धातौ नकारः अस्ति.
तदर्थं
क्रियापदे नो
नकारः अस्ति तावदेव, परन्तु विकरणप्रत्ययः ओ एव. अस्तु,
आं भगिनि,
स्पष्टं वा?
आम् आं भगिनि.
अस्तु, प्रश्नः अस्ति वा? एतद् यद्वयं पठितवन्तः तस्मिन् विषये प्रश्नः अस्ति वा?
न भगिनि.
अस्तु, अन्येषां कृते अहं पृच्छामि, प्रश्नः अस्ति वा?
नास्ति भगिनि.
अस्तु, किञ्चित् अभ्यासं किञ्चित् अभ्यासं कर्तुम् आरम्भं कुर्मः.
भगिनि, प्रश्नः नास्ति, बट् धातुगणा कापि दास् बहुत
किं भगिनि?
धातुगणा, ऐ मेक् कापि फार् धातुगणा एण्ड् कापि कमिङ्ग् सो डार्क् ऐ केन् नाट् सी इवन् सो प्लीस् डू सेण्ड् मी अगेन्
दट् इस् नाट् समथिङ्ग् वित् वाट् ऐ एम् सेण्डिङ्ग् दट् समथिङ्ग् वित् द प्रिण्टर् भगिनि. अस्तु,
धन्यवादः.
धन्यवादः. अस्तु, किञ्चित् कानिचन प्रश्नानि केचन प्रश्नान् अहं पृच्छामि, अग्रे गच्छामः, अनन्तरम् अभ्यासं कुर्मः. वीणाबेन भगिनी अद्य नास्ति किल?
अस्तु,
वीणाबेन भगिनी आगतवती वा?
आं भगिनि.
कदा आगतवती भवती? विलम्बेन आगतवती वा?
एकं निमिषं पश्चात्, एकनिमिषम्.
अस्तु अस्तु अस्तु, अस्तु. प्रथमगणः कः भगिनि?
वादिगणः प्रथमगणः.
विकरणप्रत्ययः?
अस्तु,
तुदादिगणः?
तुदादिगणे अप्रत्ययः.
अस्तु, भुवादिगणे? तुदादिगणे
विकरणप्रत्ययः
एव अस्ति विकरणप्रत्ययः भुवादिगणे तुदादिगणे तस्य विकरणप्रत्ययः आ एव अस्ति समीचीनम् भगिनि तस्य कथं भेदं जानाति एतद् धातुः अस्ति चेत् भुवादिगणे वा तुदादिगणे वा इति कथं जानाति भवती
भुवादिगणे भुवादिगणे गुणकार्यं भवति
गुणकार्यम् इत्युक्ते
एकवर्णस्य अहं वद वद वदतुं न शक्नोमि किन्तु
वक्तुं न शक्नोमि अस्तु चिन्ता मास्तु चिन्ता मास्तु शोभना भगिनी वदति वा
इकारस्य एकारः इकारस्य एकारः
का वदति
अहं वीणा भगिनी
वीणा बेन् भगिनी वा वदतु वदतु
इकारस्य एकारः भवति
अस्तु परन्तु सरलरीत्या वयं पठितवन्तः किम् इत्युक्ते अस्तु शोभना भगिनी वदति वयं शृणुमः सा कथं वदति इति अस्तु धन्यवादः वीणा बेन् भगिनी
धन्यवादः
अस्तु शोभना भगिनी भवती अन्म्यूट् करोति वा शोभना भगिनी वदति वा भेदः कः भगिनी
तुदादिगणे गुणकार्यं न भविष्यति भुवादिगणे गुणकार्यं भविष्यति
अस्तु गुणकार्यम् इत्युक्ते किं भवति
गुणकार्य इत्युक्ते एकार ओके एकारस् ओके उकारस्य ओकारः एक अकारस् ऐ डोंट् नो इकारस्य इकारः ई उ उकारस्य ओकारः ओकारस्य अर ऋकारस्य अर भविष्यति एतत् गुणकार्यं भवादिगणे भवति
सत्यं धन्यवादः भगिनी समीचीनं
धन्यवादः
जानकी भगिनी भवती वदति वा तदेव भवती अपि वदतु भवत्याः स्वचिन्तनेन किम् अस्ति इति वदतु
भुवादिगणे धातोः धातोः अन्ते उकारः ऋकारः आगच्छति चेत् परिवर्तनं भवति
तावदेव तावदेव परिवर्तनं भवति चेत् भुवादिगणः परिवर्तनं न भवति चेत्
तुदादिगणः
परन्तु भुवादिगणे अपि परिवर्तनं केषुचित् स्थलेषु न भविष्यति अस्तु परन्तु प्रमुखविषयः अस्ति एतस्मिन् एतदेव प्रमुखविषयः अस्ति प्रमुखभेदः अस्ति अस्तु
आं भगिनि
इम्पार्टेण्ट् डिफ्रेन्स् प्रमुखभेदः इत्युक्ते इम्पार्टेण्ट् डिफ्रेन्स् इति अर्थः तदेव बहु समीचीनं धन्यवादः भगिनि इदानीं पश्यामः अभ्यासं पश्यामः प्रथममस्ति धातुः क्रियापदं गणः समयः कः केवलम् एकनिमिषः एव अस्ति किल अस्तु अन्यप्रश्नः अपि पृच्छामि अनन्तरम् अग्रिमसप्ताहे वयम् अभ्यासम् आरम्भं कुर्मः अस्तु
अस्तु भगिनि
राधिका भगिनी भवती वदतु अदादिगणः जुहोत्यादिगणः तयोः मध्ये भेदः कः
अदादिगणः जुहोत्यादिगणः विकरणप्रत्ययः नास्ति अदादिगणे जुहोत्यादिगणे धातुमध्ये द्वित्वं भवति अदादिगणे न भवति
सत्यं तावदेव वेदः सत्यं धन्यवादः भगिनि धन्यवादः अनन्तरं पद्मिनी भगिनी, दिवादिगणस्य विकरणप्रत्ययः.
दिवादिगणस्य विकरणप्रत्ययः य.
अस्तु, कस्मिन् गणे विकरणप्रत्ययः अय अस्ति?
अय चुरादिगणः.
चुरादिगणः अस्ति, अय अस्ति चेत् चुरादिगणः अन्तिमगणः, दशमगणः अस्ति चुरादिगणः. दिवादिगणः विकरणप्रत्ययः य, चुरादिगणस्य विकरणप्रत्ययः अय. अय तदेव मुख्य प्रमुखविषयः. धन्यवादः. अनन्तरम् अखिला भगिनी.
आं भगिनि.
आम्, स्वादिगणः तनादिगणः तयोः मध्ये विकरणप्रत्ययः कः, भेदः कः इति वदतु.
स्वादिगणस्य विकरणप्रत्ययः नो भवति. तुतादिगणस्य विकरणप्रत्ययः तनादिगणस्य विकरणप्रत्ययः ओ भवति. स्वादिगणस्य विकरणप्रत्ययः नो. धातो धातो मध्ये न न भवति. अत्र फार् एक्साम्पल् आप् 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 आप्नोति भवति. तनादिगणः धातो मध्ये न भवति चेत् सनोति. सन् एक्साम्पल् सन् सनोति भवति. अत्र सन् धातु इट् बिकम् सनोति. बिकम्स् करोति. अत्र विकरणप्रत्यया ओ भवति.
कदा नो इति भवति?
नो नो न धातु मध्ये न भवति चेत् नो भवति.
सत्यं सत्यं सत्यं, समीचीनं. तावदेव. अनन्तरं धन्यवादः भगिनि.
धन्यवादः भगिनि.
चम्पा भगिनी. चम्पा भगिनी अस्ति वा? अस्तु, प्रगति भगिनी.
आं भगिनि.
आम्, कस्मिन् गणः गणे गणे विकरणप्रत्ययः न अस्ति, कस्मिन् गणे विकरणप्रत्ययः न अस्ति?
रुदादिगणे गणे विकरणप्रत्ययः न अस्ति, क्रियादिगणे विकरणप्रत्ययः न अस्ति.
न दीर्घ न इति अस्ति, तावदेव. अनन्तरं कुत्र कस्मिन् गणे विकरणप्रत्ययः अस्तु, तावदेव, सर्वं पठितवन्तः. तावदेव, धन्यवादः. सर्वं पठितवन्तः. तयोः मध्ये भेदः कः, प्रमुखभेदः कः इति अपि विषयमपि पठितवन्तः. अस्तु, किञ्चित् सुलभार्थम् अभ्यासः अस्ति. अभ्यासं सर्वं करणीयं, कृत्वा सुलभः भविष्यति. अग्रिमवासरे अभ्यासः एव कुर्मः. अस्तु, अस्तु, धन्यवादः. अग्रिमसप्ताहे मिलामः. एतस्मिन् विषये अद्य किं वयं पठितवन्तः, एतावत् वयं पठितवन्तः, तयोः तस्मिन् विषये यदा प्रश्नः अस्ति वा, भ्रमः जातः वा, सर्वे भ्रमः जातः वा? ऐ यु आर् फीलिङ्ग् कन्फ्यूस्ड्?
नो नो भगिनि, नो नो, क्लियर्. वि हाव् टु गेट् यूस् टु
दिस्, गेट् यूस् अण्ड् इट्स् हार्ड् टु रिमेम्बर्. ऐ अण्डर्स्टाण्ड् नौ. यु हाव् अ प्रिण्ट् औट् इन् फ्रण्ट् आफ् यू.
Yeah, repeatedly, or maybe no, that that gana we have very by heart.
Astu, astu. Gatya kalena sulabha bhavishyati, abhyasamati kurmaha. Agrima saptahe abhyasam kurmaha. Kavita bhagini. Astu. Prashna hasti te pruchanto athva agrima saptahe milamaha.
Aam.